ಏನಾಕ್ಷರ ಸಮಾಂ ನಾಯಂ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ವಾಕ್ಯಕಾರಂ ವರಋಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತೀಶ್ವರಿ ಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ. ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯ ಪಂಚಮೀ ವಿಭಕ್ತಿ ಪ್ರಕರಣ ಆರಭ್ಯತೆ. ಯಥಾ ಸರ್ವಾಸು ವಿಭಕ್ತಿಷು ತಥಾ ಅತ್ರಾಪಿ ಕಾರಕ ಪಂಚಮಿ ಇತ್ಯೇಕಃ ಭಾಗಃ ಉಪಪದ ಪಂಚಮಿ ಇತಿ ಅಪರಃ ಭಾಗಃ. ಕಾರಕ ಪಂಚಮ್ಯ ಕಾರಕ ನಿಮಿತ್ತಂ ಯತ್ರ ಪಂಚಮೀ ವಿಭಕ್ತಿಃ ಭವತಿ ತಸ್ಯ ಅಧ್ಯಯನಂ ಕ್ರಿಯತೆ. ಪಂಚಮೀ ವಿಭಕ್ತೇಃ ಕಾರಕಂ ಭವತಿ ಅಪಾದಾನ ಕಾರಕಂ. ಅಪಾದಾನ ಕಾರಕಸ್ಯ ಅಪಾದಾನೇ ಪಂಚಮೀ ಇತ್ಯನೇನ ಪಂಚಮೀ ವಿಭಕ್ತಿಃ ವಿಹಿತಾ. ತರ್ಹಿ ಅಪಾದಾನಂ ನಾಮ ಕಿಂ ಇತಿ ಆದೌ ದ್ರಷ್ಟವ್ಯಂ. ಅಪಾದಾನ ಸಂಜ್ಞಾವಿಧಾಯಕಾನಿ ಬಹೂನಿ ಸೂತ್ರಾಣಿ ರಚಿತಾನಿ ಪಾಣಿನಿನಾ. ತತ್ರ ಪ್ರಥಮಂ ಸೂತ್ರಮಸ್ತಿ ಧ್ರುವಂ ಅಪಾಯೇ ಅಪಾದಾನಂ. ತ್ರೀಣಿ ಪದಾನಿ ಸಂತಿ ಧ್ರುವಂ ಅಪಾಯೇ ಅಪಾದಾನಂ. ಅಪಾಯೇ ಯದ್ ಧ್ರುವಂ ಭವತಿ ತತ್ ಅಪಾದಾನ ಸಂಯುಕಂ ಭವತಿ ಇತಿ ಅರ್ಥಃ. ಕಾರಕೇ ಇತ್ಯಧಿಕಾರಃ ಅಸ್ತಿ. ಅಪಾಯಃ ನಾಮ ಕಃ, ಧ್ರುವಂ ನಾಮ ಕಿಂ ಇತಿ ಚೇತ್, ಅಪಾಯಃ ವಿಶ್ಲೇಷಃ. ತಸ್ಮಿನ್ ಸಾಧ್ಯೇ ಧ್ರುವಂ ಅವಧಿಭೂತಂ ಕಾರಕಂ ಅಪಾದಾನಂ ಸ್ಯಾತ್ ಇತಿ ಸೂತ್ರಾರ್ಥಃ ಲಿಖಿತಃ ದೀಕ್ಷಿತೈಃ. ಸರ್ವೇಷಾಂ ಪದಾನಾಂ ವಿವರಣಂ ತೈರೇವ ದತ್ತಂ. ಅಪಾಯಃ ನಾಮ ವಿಶ್ಲೇಷಃ, ತಸ್ಮಿನ್ ಸಾಧ್ಯೇ ನಾಮ ಅಪಾಯೇ, ಧ್ರುವಂ ಧ್ರುವಂ ನಾಮ ಅವಧಿಭೂತಂ ಕಾರಕಂ ಅಪಾದಾನ ಸಮಯಂ ಸ್ಯಾತ್. ವಿಶ್ಲೇಷಃ ನಾಮ ಕಃ ಇತಿ ಪುನಃ ಪ್ರಶ್ನಶ್ಚೇತ್, ದ್ವಯೋಃ ಸಂಯುಕ್ತಯೋಃ ಅನ್ಯತರಸ್ಯ ಚಲನಾದ್ ವಿಶ್ಲೇಷಃ. ವಿಶ್ಲೇಷ ಆರ್ ಅಪಾಯ ಇಸ್ ನಥಿಂಗ್ ಬಟ್ ಪ್ರಿಪರೇಷನ್. ದ್ವಯೋಃ ಸಂಯುಕ್ತಯೋಃ, ಸಂಯೋಗ ಇಸ್ ಜಾಯಿನಿಂಗ್ ಆಫ್ ಟೂ ಥಿಂಗ್ಸ್. ಸೊ ದೇರ್ ಆರ್ ಟೂ ಥಿಂಗ್ಸ್ ವಿಚ್ ಆರ್ ಟುಗೆದರ್. ಅನ್ಯತರಸ್ಯ ಚಲನಾತ್ ಒನ್ ಆಫ್ ದೆಮ್ ಮೂವ್ಸ್ ಅವೇ ಫ್ರಮ್ ದ ಅದರ್ ಅಂಡ್ ದೇರ್ ಇಸ್ ಅ ಸೆಪರೇಷನ್. ದಿಸ್ ಇಸ್ ಕಾಲ್ಡ್ ಅಪಾಯ ಆರ್ ವಿಶ್ಲೇಷ. ಫಾರ್ ಎಕ್ಸಾಂಪಲ್, ದೇರ್ ಇಸ್ ಎ ಟ್ರೀ ಅಂಡ್ ದೇರ್ ಇಸ್ ಎ ಲೀಫ್. ದ ಲೀಫ್ ಇಸ್ ಅಟ್ಯಾಚ್ ಟು ದ ಟ್ರೀ. When the leaf falls down, there is an apaya or a vishlesha. You are there in your house. When you move away from your house, initially there was the sanyoga between you and your house. Anyatarasya chalana, since you moved away, there is a vishlesha or an apaya between you and the house. Gayo sanyuktayoho anyatarasya chalana vishleshaha. Tatra tadrisha chalana anashraya bhutam dhuvam. Dhuvam ityasya avadhibhutam. From which the thing moves away. As you notice, anyatarasya chalana, there is one thing which is moving away. Okay, generally in case of vishlesha. For example, either when a leaf is falling from a tree or when you are moving away from the house, there is one thing which is moving. Either the leaf or you, which is the karta. Yaha chalati saha karta bhavati. Tadrisha chalana anashraya bhutam, that which is not the ashraya for chalana. That which is not moving is called dhruva. Okay. For example, the tree. In case of the tree and the leaf moves and the tree is constant. Dhruvam generally means that which is steady. Dhruvam ityasya padasya samanyatah arthah bhavati steady. Atayava dhruva nakshatram ityasyate, that which is almost permanent is called dhruva. In this context, dhruva means that which is not moving in case of that separation. There is a separation between two object. One of the objects moves away and the other remains steady. The steady object is called dhruva. Apayaha vishleshaha tasmin sadhye dhruvam avadhibhutam karakam apadanam syat. Apaye dhruvam. So when there is vishlesha, that which is steady is called apadana. Apadane panchami iti agrimam sutram. Spashtamasti. So he does not even give the ಸೂತ್ರಾರ್ಥ ಇದೆ. चैत्रः ग्रामाद् आयाति चैत्र ग्रामयोः संयोगः विद्यते तत्र तस्य आगमनेन व्यापाराश्चर्ता चैत्रः कर्ता आगच्छति आयाति नाम आगच्छति इत्यत्र प्रधानी भक्तस्य प्रधानी होत व्यापाराश्रयः चैत्रः कर्ता चैत्र इस् द कर्ता इन् आगमन चैत्र ग्रामयोः विश्लेषः आगमन क्रियया जायते सो वै चैत्र कम्स् अवे देयर इस् अ विश्लेष आर् अ सेपरेशन् बिट्वीन् चैत्र एण्ड् द विलेज् तत्र अवधिभूतः ग्रामः तस्मिन् विश्लेषे सति अवधिभूतः ग्रामस्य चलनं न भवति चलन अनाश्रयम् इति उक्तं ग्रामस्य चलनं न भवति चैत्रस्यैव चलनं भवति अतः अपाये अवधिभूतः ग्रामः ग्रामस्य अपादानत्वात् पञ्चमी विभक्तिः ग्रामाद् आयाति ध्रुवम् अपाये अपादानम् इत्युक्ते ध्रुवम् इति उक्तं चलनाश्रयत्वम् It should not be moving. Kinto, tasya kahartha vastutaha, it does not mean that the avadhi should be stationary. Tasmin kimapi chalanam nasyat iti artha nasti. Vishlesha hetukaha yaha vyaparaha, tasya vyaparasya anashriyatvam eva vipakshitam. What it means is, it does not mean that the, whatever, the avadhi should be steady or it should have no movement by itself. Okay? So it might have its own movement, but it should not be the ashraya for the movement which is causing the vishlesha. For example, as I told, there is a tree and there is a leaf. The tree might be moving by itself, but the movement which we consider here is the vishlesha, which is the separation between the tree and the leaf. In such a separation, it is the leaf which falls down and hence it is the leaf movement which we are considering, and with respect to that movement, the vriksha is avadhibhuta or steady. To emphasize this point, he gives an example. Dhavata ashvat patati kachit yodhaha. Dhavataha ashvat patati. He falls down from the running horse. Ashvaha dhavati. Dhavataha ashvasya upari ayam upavishtaha. Tasmat patati. Ashvat patati. Iti siddham. अश्वः अस्ति योधः अस्ति योधस्य पतनेन अश्वयोधयोः विश्लेषः जायते तत्र अश्वः ध्रुवः धावतः अश्वात् यदा अश्वः धावति तदापि सः तत् ध्रुवमेव धावनक्रियायाम् अश्वः कर्ता पतनक्रियायां योधः कर्ता यु शुड् नोटिस् दट् देयर् आर् टु सेपरेट् एक्शन्स् हियर् अश्वस्य धावनम् इत्येका क्रिया तत्र अश्वस्य कर्तृत्वमस्ति तद्भिन्नम् किन्तु इदानीं विश्लेषः कस्मात् जायते पतनक्रियायाः जायते द विश्लेष द सेपरेशन् इस् बीङ्ग् कास्ड् बै द क्रिया आफ् फालिङ्ग् तत्र योधः कर्ता योधाश्वयोः विश्लेषः पतनक्रियया जायते अश्वस्य वयं चलनशीलत्वे इवन् दो द अश्व मैट् बि मूविङ्ग् बै इट्सेल्फ् विश्लेषे वित् रेस्पेक्ट् टु दट् फालिङ्ग् सः अवधिः इट् इस् द Yodha who is the karta in falling and Dhruva is the avadhi, is Ashva. He is falling down from the horse. Ataha tasyati dhruvatvam asti apadanatvam bhavati. Apadanatvam panchami bhaktihi dhavataha ashvat patati. Karakam kim rukshasya paranam patati. Karakadhikara asti karakam nama क्रियाजनकं कारकं दट् विच् काज् दट् विच् इस् असोसियेटेड् डैरेक्ट्लि वित् द क्रिया यत् क्रियान्वयी तत् कारकम् इस् काल्ड् कारकम् सो वेन् कारकत्व इस् नाट् इण्टेण्डेड् कारकत्वं यदा न विवक्षितं कारकत्वं न विवक्षितम् इत्युक्ते सम्बन्धः इत्यस्ति सम्बन्धः इस् ओन्ली अ रिलेशन्शिप् यदा केवलं सम्बन्धमात्रस्य विवक्षा भवति तदा पञ्चमी विभक्तिः न भवति षष्ठी विभक्तिः भवति Shashti is the vibhakti for sambandha. Okay. So, vrikshasya varanam patati. Atra, vishleshahava, avadhibhutamva, na vivakshitam. In this case, the separation is not intended and vriksha is not intended as the avadhi for separation. That is not the vivaksha. Vivaksha ka vrikshasya varanasya sambandha asti, itseva vivaksha. సంబంధ మాత్ర వివక్షాయాం యదా విశేష వివక్ష్యతే తత్ర అవధిభూతత్వం చ వివక్ష్యతే తదైవ కారకత్వం సదైవ అపాదానత్వమే భవతి యదా కారకత్వస్యైవ వివక్ష నాస్తి సంబంధమాత్రస్య వివక్ష భవతి తదా శేషే షష్ఠీ ఇది అగ్రే పఠ్యతే తదా షష్ఠీ విభక్తిః భవతి అతఏవ అత్ర కారకత్వం న వివక్షితం విశ్లేషః అపి న వివక్షితః సెపరేషన్ ఆర్ బీయింగ్ ద పాయింట్ ఆఫ్ సెపరేషన్ ఇస్ నాట్ ఇంటెండెడ్ హియర్ దట్ ఇస్ వై శాఖాస్థే పర్ణే భూమిం స్పృశ్యతి Say there is a leaf, there is a tree and a leaf, the branch bends down due to wind and the leaf touches the ground. Tadapi vrikshasya parnam patati iti prayogaha drishyate. Bhashyakara says even in such case, you can use vrikshasya parnam patati. Patati is just adhodesha sanyogaha ityeva arthaha. Patati means adhodesha sanyogaha. So get a sanyoga with the lower ground. Now, when there is no, even when there is no separation between the tree and the leaf, but still the leaf is touching the ground, tadati vrikshasya paranam patati iti prayogaha bhavati. Because only the sambandha between vriksha and parana is intended, visheshaha na vivakshitaha. Separation is not intended in this case. But vrikshat paranam patati ityukte, tatra visheshaha bhavatyeva. About the whiteboard, yes, the whiteboard is not loading, I don't know why it is not loading. This is why I mean, we are using the presentation which I mailed to you. We are in slide number 5. Finished slide number 5. So, apadanam, dhavam apaye apadanam, apadane panchami vibhakti. Ranim, apadana karaka విధాయకాని వాక్యకాని సంతి ధూమపాయే అపాదానం ఇత్యత్ర ఏకం వాక్యకమస్తి జుగుప్త విరామ ప్రమాదార్థానాం ఉపసంఖ్యానం ఇన్ కేస్ ఆఫ్ ద యూసేజ్ ఆఫ్ దీప్ ధాతు జుగుప్సార్థకాః విరామార్థకానాం తథైవ ప్రమాణార్థకానాం చ ధాతూనాం ప్రయోగే అపాదాన సంజ్ఞా భవతి పంచమీ విభక్తిశ్చ భవతి ఇత్యర్థః. జుగుప్స ఇస్ డిస్కస్డ్. Virama is to stop something. Viramate is to stop doing something. Pramada is to make a mistake. Because you do not know what is correct, so you make a mistake. Etesham dhatunam prayoge etad vishayaha jugupta vishayaha. So when you are disgusted, there should be some source of disgust. Okay. Tasya apadana samya bhavati apadane panchami chanena panchami bhakti. పాపాత్ జుగుప్సతే డిస్కస్టెడ్ ఆఫ్ సిన్ హీ డస్ నాట్ ఇండల్జ్ ఇన్ సిన్ ఇత్యర్థః. అత్ర జుగుప్స ఇతి గుపధాతోః సంబంధస్య ప్రయోగః స్వార్థే సంభవతి తస్య ప్రయోగే తద్విషయస్థః తద్విషయో భవతి పాపం పాపస్య అపాదాన సంజ్ఞా భవతి పంచమీ విభక్తిః పాపాత్ జుగుప్సతే ఏవం ధర్మాత్ పాపాద్ విరమతి. సో హీ స్టాప్ కమిటింగ్ సిన్స్ పాపాద్ విరమతి హీ టేక్స్ అ బ్రేక్ ఇట్స్ నాట్ రియలీ టేకింగ్ అవే విరమతి మీన్స్ హీ స్టాప్ ఓకే హీ సీసెస్ ఫ్రమ్ సిన్ ఇత్యర్థే పునః పాపశబ్దాత్ అపాదాన పాపశబ్దస్య అపాదానత్వం తత్ప్రయుక్త పంచమీ భక్తి ధర్మాత్ ప్రమాద్యతి. He does not know what is dharma, ataha pramadaha. Nama, it's a mistake. He commits a mistake with relation to dharma. So, jugupta virama pramadarthanam etesham dhatunam prayoge tadvishayasya apadana samya bhavati anena vartikena tatprayukta panchami. Agrimam sutram asti श्री कृष्ण भयम अगे हाँ अधिकरण मान्यतः भयार्थकानां प्रयोगे तदेव इदमेव सूत्रं भीतार्थानां भय हेतुः इति अग्रिमं सूत्रं भय हेतोः पञ्चमी विभक्तिः भवति यदा हेतुत्ववक्षा भयस्य हेतुः इति यदि विवक्षा तदा पञ्चमी विभक्तिः भवति यदा तु अधिकरणत्वस्य विवक्षा वैशेषिकसप्तमी पापस्य विषये भयम् इति यदा विवक्षा तदा सप्तमी विभक्तिः भवितुम् अर्हति विवक्षातः कारकाणि का विवक्षा इति द्रष्टव्यम् विवक्षायां सत्यां भवितुम् अर्हति भर्तृहरेः भवति अस्ति भोगे रोगभयम् किमपि तत्र सर्वत्र सप्तमी विभक्तेः एव प्रयोगः अस्ति काये रोगभयम् किमपि श्लोकं न स्मरामि किन्तु तत्र भय इत्यस्य प्रयोगेपि सप्तमी विभक्तिः श्रूयते तत्र अधिकरणत्वस्य वैषयिक अधिकरणस्य विवक्षातः सप्तमी विभक्तिः भवति भीत्रार्थानां भयहेतुः इति अग्रिमम् अपादानसंज्ञा विधायकं सूत्रम् भीत्रा अर्थानां भी इत्यस्य अर्थः भयार्थकानां त्राणार्थकानां भयम् फियर् त्राण प्रोटेक्शन् एतेषाम् एतदर्थकानां धातूनां योगे भयहेतुः द सोर्स् आफ् फियर् भय इत्युक्ते साक्षात् भयस्य हेतुः त्राणम् अन्य प्रोटेक्टिङ्ग् इट् मीन्स् देर् इस् फियर् फ्रम् सम्बडि इट् इस् इम्प्लैस् तस्य भयस्य यः हेतुः तस्य अपादानसंज्ञा भवति ध्रुवमपाये अपादानम् इत्यतः अपादानम् इति अनुवर्तते भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुः अपादानं स्यात् इति सूत्रार्थः उपसंख्यानम् वार्तिके उपसंख्यानम् इत्यस्य एडिशन् इत्यर्थः शुड् बि एडेड् आन् तेषामपि परिगणनं भवति शुड् बि कन्सिडर्ड् विरुक्ता विराम प्रमादार्थानाम् उपसंख्यानम् तेषामपि परिगणनं कर्तव्यं कुत्र अपादानसंज्ञा निधायके सूत्रे इत्यर्थः सो इन् वार्तिका यु जनरलि सी दिस् उपसंख्यानम् इन् वार्तिककारा इस् एडिङ्ग् अ फ्यू मोर् वर्ड् टु वाट् हेस् आलरेडी बीन् टोल्ड् बै द सूत्रकार भीत्रार्थानां भयहेतुः भयार्थानां प्राणार्थानां च प्रयोगे भयहेतुः अपादानं स्यात् चोराद् विभेति चोरात् त्रायते कश्चन चोरात् विभेति भयम् अनुभवति तत्र भयस्य हेतुः कः चोरः तस्मात् चोरस्य अपादानत्वं तन्निमित्तम् अपादाने पञ्चमी इति पञ्चमी विभक्तिः एवं चोरात् त्रायते आरक्षकः चोरात् त्रायते द पोलिस् विल् प्रोटेक्ट् हिम् फ्रम् द थीफ् अत्रापि त्रायते नाम रक्षति इत्यर्थः तत्र कस्माद् रक्षति केन भयम् कस्माद् भयमासीत् येन प्राणमपेक्षितम् इति चेत् चोरात् भयम् अत्रापि चोर एव भयहेतुः तस्मात् पञ्चमी तदर्थकानाम् अन्येषामपि धातूनां प्रयोगे भवति व्याघ्रात् त्रस्यति त्रासः नाम भीतिः भयम् इत्येव अर्थः व्याघ्रात् त्रस्यति मरणाद् रक्षति अन्येषामपि एतदर्थकानां धातूनां प्रयोगे अपादानत्वं पञ्चमी विभक्तिश्च भवति भयहेतुः किम् एतेषां धातूनां प्रयोगे भयस्य हेतुः यत् कारकं तस्यैव अपादानसंज्ञा भवति न तु अन्येषाम् अरण्ये विभेति त्रायते वा अरण्ये व्याघ्रात् त्रस्यति अथवा विभेति इत्यस्ति चेत् अरण्यस्य अपादानसंज्ञा न भवति अधिकरणत्वमेव भयस्य हेतुः व्याघ्रः यदि तु अरण्यमेव भयहेतुः इफ् ही इस् स्केर्ड् आफ् द फारेस्ट् इट्सेल्फ् तदा अरण्यात् विभेति इति प्रयोगः भवति किन्तु यदा तस्य अरण्यस्य अरण्यं न भयहेतुः अरण्ये विद्यमानं यत्किञ्चित् वस्तु व्याघ्रो वा हिंसपशवो वा भयहेतुः तदा अरण्ये विभेति अरण्ये त्रायते सो यु नोटिस् एव्रिवेर् इट् इस् विवक्षा वाट् इस् युर् विवक्षा इफ् यु इण्टेण्ड् अरण्य द फारेस्ट् इट्सेल्फ् एस् द hetu for bhaya, reason of cause of fear, tadatu apadanatvam bhavati panchami api bhavati. Yada aranyasya bhaya hetutvena vivaksha nasti tada na bhavati. Itseva artha. अग्रिमं सूत्रमस्ति पराजयेर असोढः पदद्वयं विद्यते पराजयेः असोढः इति ध्रुवमपाये अपादानम् इत्यतः अपादानम् इति अनुवर्तते पराजयेः प्रयोगे असह्यः अर्थः अपादानम् स्यात् इति सूत्रार्थः पराजयते परा इति इत्येतद् निपातपूर्वकः जी उपसर्गपूर्वकः जी धातुः पराजयते इत्यर्थः इति प्रयोगः सो पराजयते इज यूज्ड् इन् टू टेन्सेस् एक्चुअली यू हैव पराजयते इज टु डिफीट समबडी इज द जनरल मीनिंग विच इज डिफरेंट बट व्हेन द पर्सन हिमसेल्फ शाइज अवे फ्रॉम समथिंग और ही runs away from something tadapi parajayate ityasya prayogah bhavati atra tu asodhah iti uktasvat asakyah arthah that which he cannot tolerate tasyaiva apadanatvam iti uktasvat dvitiyasyaiva arthasya grahanam natu अन्यम् पराजयति इत्यर्थे पराजयते इत्यर्थे तदेव उच्यते अद्वैलिखितेरपि पराजयः प्रयोगे असह्यः अर्थः अपादानम् स्यात् अध्ययनात् पराजयते हि रन्स् अवे फ्रम् स्टडीस् बिकास् हि केन् नाट् टालरेट् स्टडि ग्लायति इत्यर्थः ग्लायति नाम न सहते हि केन् नाट् टालरेट् द difficulties of studying. In those days, seen in all time. Isishya teshe dineshu gurukule gatva sarvam shariri kaha pishtamaha maudhi kaha pishtamaha tat sodhum na shaknoti. He cannot tolerate the difficulties encountered during adhyayana. Nataha adhyayanat parajayate. Atodhaha नाम सोढुम् अशक्तः टालरेटेड् अतः तत्र पञ्चमी विभक्तिः भवति अपादानत्वं तत्प्रयुक्ता पञ्चमी विभक्तिः भवति असोढः किम् नाम दट् विच् हि केनाट् टालरेट् अस्मिन् एव अर्थे अत्र अपादानत्वं भवति शत्रून् पराजयते यदा तु शत्रून् हि डिफीट् enemies इत्यर्थे यदा परा इत्युपसर्गपूर्वक जी धातोः प्रयोगः तत्र अपादानत्वं न भवति अभिभवति conquers इत्यर्थे शत्रून् पराजयते अन्यपि अभ्यासात् पराजयते व्यायामात् पराजयते मेनी थिङ्ग्स् विच यू केन् नाट् टालरेट् फर् ईच् पर्सन् तत्र सर्वत्र भवति अपादानत्वम् मया पूर्वोक्तः श्लोकः वैराग्यसकटात् वस्तुतः सः श्लोकः वेदा भगिन्या दत्तः भोगे रोगभयम् कुले च्युतिभयम् वित्ते नृपालाद् भयम् बहु सम्यगस्ति श्लोकः भोगे रोगभयम् देर् इस् एव्रिथिङ्ग् इन् दिस् वर्ल्ड् इस् असोसियेटेड् वित् फियर् भोगे वेन् यु हाव् थिङ्ग्स् आफ् प्लेजर् रोगभयम् यु आल्सो हाव् द फियर् आफ् डिसीस् वेन् यु आर् ईटिङ्ग् वेल् वेन् यु हाव् एव्रिथिङ्ग् टु enjoy yourself, roga bhayam, kule chiti bhayam. When you are born in a good family, you have the fear of prestige. Chiti bhayam, kulasya chiti bhaved iti bhayam bhavati. Vite napalad bhayam, irita mahat dhanam bhavati, sarhi rajyaha bhayam. Mane dainya bhayam, bale ripu bhayam, rupe jaraya bhayam. If you have beauty, you fear old age. If you have strength, if you are enemies, Mane, if you have self-respect, you fear dependency, depending on others. Shastre vadi bhayam. You are very good at shastra, you will study it very well. Vadi bhayam. You are scared of somebody who will pull you to a debate and defeat you. Gune khala bhayam, kaye sutantad bhayam. Gune, when you have good qualities, you also have fear of evil men harming you because of the qualities. Kaye sutantad bhayam. When you have your body, as long as you have the body, you are afraid of death. Sarvam vastu bhayanvitam bhuvimranam. Everything in this world is with fear. Vairagyam eva bhayam. Iti bhatra rehe shokaha vairagyasake. Tata sarvatra panthani. Actually, this is not really an example because he says, in bhoge roga bhayam. Rogat bhayam, roga bhayam. The samasa is panthani samasa itself. So it might not be the example of bhoge roga bhayam. Rogat 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 bhayam. व्याकरणम् भयहेतुः न अज्ञानम् भयहेतुः व्याकरणेन ज्ञानम् भवति चेत् व्याकरणम् त्रायते न तु भाययति पराजयरसोढः अध्ययनात् पराजयते इति मास्तु अध्ययनस्यैव शत्रून् पराजयते इति यथा अस्ति तत्र अभिभवति इत्यर्थे अपादानत्वं न भवति ग्लायति इत्यर्थे एव अपादानत्वम् तत्र वारणार्थानाम् ईप्सितः इति अग्रिमम् अपादानसंज्ञाविधायकं सूत्रम् परद्वयं विद्यते मारणार्थानाम् ईप्सितः अपादानम् इत्यनुवर्तते प्रवृत्तिविघातः वारणम् वारणम् नाम किम् इति चेत् प्रवृत्तिविघातः प्रवृत्ति इस् वेन् यू ट्रै टु डू समथिङ्ग् सः कस्मिंश्चित् कार्ये प्रवर्तते तस्य विघातः टु प्रिवेण्ट् समबडी फ्रम् डूयिङ्ग् समथिङ्ग् इस् वारण वारणार्थानां धातूनां प्रयोगे ईप्सितः अर्थः अपादानम् स्यात् सो दट् विच् इस् डिसैल्ड् ईप्सित इत्युततम देर् इस् अ डिफरेन्स् यत्तु यथा गृहेरीप्सितः तथा एवमपि वारणार्थानाम् ईप्सितः इति उच्यते ईप्सिततमम् यदस्ति तस्य कर्मसंज्ञा भवति केवलम् ईप्सितस्य तु अपादानसंज्ञा भवति यवेभ्यः गां वारयति इति उदाहरणम् यव ग्रीन् पाडि तस्मात् गां वारयति द कौ इस् ट्रैङ्ग् टु ईट् आल् द पाडि सो हि प्रिवेण्ट्स् द कौ फ्रम् ईटिङ्ग् अप् द ग्रीन् यवेभ्यः गां वारयति अत्र यवानाम् इच्छितत्वात् अपादानत्वम् वारणार्थानाम् ईप्सितः इत्येन गोः ईप्सिततमत्वात् कर्मत्वम् सो इन् द एक्शन् आफ् वारण ईप्सिततम इस् गौः तस्मात् तस्याः कर्मत्वम् भवति ईप्सितम् तु यवाः तेषाम् अपादानत्वम् इति उच्यते ह्यूज् डिस्कशन् ओवर् दिस् किमीप्सितम् किमीप्सिततमम् बिट् बियाण्ड् आर् रेञ्ज् बट् इट्स् वेरि इण्ट्रेस्टिङ्ग् What do you define as ikshita? What do you define as ikshita kama? And how do you get apadanatva, karmatva, etc. So now the example is pretty easy to understand. So let's move on. When you are preventing something from something, this is almost like Panchami is actually very easy to understand. Yavedhyaha gam marayati. The cow is trying to eat the paddy, so you are restraining the cow from paddy. Okay. So the ichita tama in case of restraining is gauhu. Ataha tasyaha karmatvam tatrayukta tritiya vibhaktihi bhavati. Dvitiya vibhaktihi bhavati. ईप्सिताः यवाः अनेन सूत्रेण वर्णार्थानाम् ईप्सितः इत्यनेन पञ्चमी अपादानत्वं पञ्चमी विभक्तिः भवति. वारणं नाम अवरोधनम् इत्यर्थः. अतः अवरुणद्धि ऋणद्धि इत्यादीनां धातूनां प्रयोगेऽपि अपादानत्वं पञ्चमी विभक्तिश्च भवति. ईप्सितः किं यवेभ्यः गां वारयति क्षेत्रे. क्षेत्रस्य ईप्सितत्वं नास्ति. इट् इस् नाट् द क्षेत्र पर् से द सी डिसैड्स्. सी डिसैड्स् द यवा. अतः यवानामेव अपादानत्वं भवति, न तु क्षेत्रस्य अधिकरणत्वमेव. अग्रिमं सूत्रमस्ति अन्तर्भौ येनादर्शनम् इच्छति. चत्वारि पदानि सन्ति. अन्तर्भौ येन अदर्शनम् इच्छति इति पदच्छेदः. चत्वारि पदानि. ध्रुवपाये अपादानम् इत्यतः अपादानम् इति अनुवर्तते. अन्तर्भिः. अन्तर्भिः इस् टु डिसपियर् टु बि अवे फ्रम् सैट्. अत एव व्यवधाने सति. सो वेन् देर् इस् अ सेपरेशन् वेन् सम्बडि वेन् यु आर् ट्रैङ्ग् टु हैड् युवर् सेल्फ् फ्रम् सम्बडि. यत्कर्तृकस्य आत्मनः दर्शनस्य अभावम् इच्छति येन अदर्शनम् इच्छति. अदर्शनम् नाम आत्मनः दर्शनस्य अभावम्. यु आर् ट्रैङ्ग् टु हैड् युवर् सेल्फ् फ्रम् सम्बडि. सो हू डु यु नाट् वाण्ट् टु सी यु. फार् एक्साम्पल् यु आर् हैडिङ्ग् फ्रम् से अ थीफ् इस् हैडिङ्ग् फ्रम् अ पोलिस्मेन्. द थीफ् डस् नाट् वाण्ट् द पोलिस्मेन् टु सी हिम्. यत्कर्तृकस्य आत्मनः दर्शनस्य अभावम् इच्छति तद् अपादानम् स्यात्. उदाहरणम् मातुर्लीयते कृष्णः. कृष्ण इस् हैडिङ्ग् फ्रम् हिस् मदर्. Okay, so something or just for play, he is hiding from his mother. He does not want his mother to see him. Yavadhane sati. So there is something he has done to hide. Maybe he has gone behind the door or he has done something to hide himself from her. Yavadhane sati. Yatkartrakasya atmanaha darshanabhavam icchati. So, who does he not want to see him? His mother. Okay. Tad apadanam syat. Ataha matuhu apadanatvam. Matuhu niniyate krishnaha. Matuhu iti panchami bhaktihi asti. Antardha vyavadha kumsi tantardhir apavaranam. Ityamaraha. Antardha vyavadha iti pullinge. Antardhi iti strilinge. Antardha vyavadha kumsi tantardhihi apavaranam. Antardhihi iti strilinge. अन्तर्धौ किम् इति प्रश्नः. चौरान् न दिदृश्यते. वेन् देर् इस् संथिङ्ग् विच् इस् डन् टु हैड् हिम्सेल्फ् तदैव अस्य सूत्रस्य प्रवृत्तिः भवति. चौरान् न दिदृक्षते. हि डस् नाट् विश् टु सी ही. देर् आर् थीव्स्. हि डस् नाट् विश् टु सी देम्. But he does not do anything to hide himself. Tadātu asya sutrasya pravatihi nāsti. Panchamyaha prayogaha nāsti. So when there is an attempt to hide or to conceal oneself, tadaiva asya prayogaha. Antardhau yena darshanam ichyati. Anyatha chauran na didrukshyate. So simply say, if the vivakshayati does not wish to see thief, tada अस्य प्रयोगः नास्ति. इच्छति ग्रहणं किम्. अन्तर्धौ येन अदर्शनम् इच्छति इति उच्यते. अन्तर्धौ येन अदर्शनम् इति नोक्तम्. यदस्ते फ्रम् हूम् हि इस् कन्सी. फ्रम् हूम् हि desires to conceal himself, he or she. किमर्थम इति चेत् अदर्शने छायां सत्यां सत्यपि दर्शने यथा स्यात्. As long as you have made some attempt to hide yourself, whether you manage it, whether you are successful at hiding yourself or not, apadanatvam bhavatyeva. Chorebhyaha antardadhati. So he hides from thief. Okay, he goes somewhere. He hides behind, below the court or something. Yadyapi choraha tam pashyanti. Even if the thief managed to see him, tadapi apadanatvam astyeva. As long as he tries or makes some attempt to hide himself, antardham enadarshanam icchati ityanena apadanatvam bhavati chorebhyah antardadhati. Antardhi arthakanam dhatunam prayoge apadanatvam bhavati. अग्रिमं सूत्रमस्ति आख्यातोपयोगे. अपादानम् इति वर्तते. आख्यातं नाम उक्तम् इत्येव अर्थः. आख्यात दट् विच् इस् सेड्. उपयोगः नाम कः इति चेत् नियमपूर्वक विद्यास्वीकारे वक्ता प्राप्तव्यः स्यात्. अत्र उपयोगः इत्यस्य नियमपूर्वक विद्यास्वीकारः इत्येव अर्थः आख्यातोपयोगे इत्यस्य. So, when according to procedure, according to the proper procedure, there is vidyasvikara, study. He studies something from a guru. Tada vakta yaha bodhayati saha praksanyaha nama apadana samyaha syat. It is utsartaha. Upadhyayad adhite. He studies from a teacher. Upadhyayad adhite nama samyak. नियमः नाम कः अध्ययने इति चेत् अध्ययनं तु गुरोच्चारण अनुच्चारणं नियमपूर्वकम्. वाट् इस् डिफैन्ड् एस् नियमपूर्वक अध्ययन. सो हियर् बै अध्ययन दे आर् रेफरिङ्ग् टु वेदाध्ययन विच् वास् द अध्ययन इन् दोस् टैम्स्. गुरुच्चारण अनुच्चारणं द गुरु टीचर् एण्ड् यु रिपीट् तदेव नियमपूर्वकम् अध्ययनम्. अध्ययनम् अत्र वेदाध्ययनमेव विवक्षितं. तदपि गुरुः बोधयति, भवान् तत् अनुच्चारयति, तदेव नियमपूर्वकम् अध्ययनम् इन् दिस् काण्टेक्स्ट्. टुडेस् काण्टेक्स्ट् वाट् इस् नियमपूर्वक अध्ययन किन्तु अत्र नियमपूर्वक विद्यास्वीकारः नाम ईदृशः गुरुच्चारण अनुच्चारणम् अध्ययनम् एव नियमपूर्वकम्. तादृश विद्यास्वीकारे यः बोधयति नाम उपाध्यायः तस्य अपादानसंज्ञा भवति उपाध्यायात् अधीते. उपयोगे किं नाम नियमपूर्वकविद्यास्वीकारे एव अपादानत्वम् इति किमर्थम्. नटस्य गाथां शृणोति. कश्चन नटः अस्ति, किञ्चित् नाटकं, तस्य गाथां कथां शृणोति इत्यर्थः. अत्रापि नटात् शृणोति इत्यस्ति इत्युक्ते हि हियर्स् इट् फ्रम् द एक्टर्. Okay, just like he listens to Veda from his teacher, he would listen to the Gatha from the actor. Kintu niyamapurvaka vidyasvikarah nasti, ataha satra apadanatvam na bhavati na tasya gatham shrunoti. Iti shashti vibhakti. आख्यातोपयोगे. सो व्हेनेवर यू आर स्टडीइंग इन द प्रॉपर प्रोसीजर तत्र यस्माद् अधीते द पर्सन फ्रॉम हूम यू आर स्टडीइंग द टीचर विल गेट अपादान समया. सो व्हेन यू आर सेइंग नटस्य गाथां शृणोति, यू आर लिसनिंग, आई मीन कैजुअली लिसनिंग टू सम स्टोरी बाय एन एक्टर. आई मीन द एक्टर इज नरेटिंग सम स्टोरी एंड यू आर लिसनिंग टू इट. दिस इज नॉट नियमपूर्वक विद्यास्वीकार. इवन दो यू माइट बी लर्निंग समथिंग, it is not niyapurvaka vidyasvikara. That is akhyata. If you just say akhyate, akhyatam nama, that which is told and which you hear it. So it is not just hearing anything from anybody. For example, in English itself you have this, you hear it from somebody. Tasmin arthe apadanatvam na bhavati, niyapurvaka vidyasvikare eva apadanatvam. Anyatha अपादानत्वं नास्ति नटात् इति न भवति नटस्य गाथां शृणोति इति षष्ठी विभक्तिरेव. Any doubts with this? जनिकर्तुः प्रकृतिः इति अग्रिमं सूत्रं पदद्वयमस्ति. जनिकर्तुः प्रकृतिः अपादानम् इति अनुवर्तते. जायमानस्य हेतुः जनिकर्ता, जनिः नाम जन्म, जनजननजन्मानि जनिरुत्पत्तिरुद्भवः, उत्पत्ति और उद्भव, बर्थ इज कॉल्ड जनि. जनिकर्तुः कर्ता ऑफ जनन दट विच इज बीइंग बोर्न. जायमानस्य प्रकृतिः नाम हेतुः, द कॉज फ्रॉम विच समथिंग इज बोर्न, और द प्रकृति द मूल फ्रॉम विच समथिंग इज बोर्न विल गेट अपादान संज्ञा. ब्रह्मणः प्रजाः प्रजायन्ते, इट्स वेरी द डायरेक्ट सिद्धांत ऑफ वेदांत इज ऑल बीइंग्स प्रजाः आर बोर्न फ्रॉम ब्रह्मण. दैट इज ब्रह्मा, Brahma here is the Parabrahma. So that is the Moola for all, everything which exists in this world. Ataha Brahmanaha Prajaha Prajayante. They are born from Brahma. Brahma Prakritihi, Prajaha Brahmanaha Vikritihi. Brahmanaha Jayante. Ataha Prakritehe Brahmanaha Apadana Samya Panchami. So Brahmanaha is Panchami. It has apadana because of janikartuhu prakritihi. Bhuvaha prabhavaha iti agrimam sutram. Bhuvaha prabhavaha apadanam iti anuvartate, janikartuhu ityataha kartuhu iti anuvartate. Bhavanam bhuhu iti chede. So there is a question between what is the difference. There are many cases. What is the difference between Janikartu Prakritihi and Bhuvah Prabhavah? It's a question which arises often. Bhukartuhu Prabhavah Tatha iti Sutrarthaha. Ashidharma has just been read. So, the Sutrartha of Dikshita says, Bhukartuhu Prabhavah. Bhuhu nama, he exists. Itseva. Prabhavah is again the origin. It's called, it will get apadana. It's the meaning which appears. But there is a difference between Jani, that is Prakriti, Janana and Prabhava. Okay? So the Vyakhyakara says, Prathamam Prakashate Asmin iti Prabhavaha. Where it is seen first. Okay? It need not be born there. Prathamam Prakashate, Prathama Prakashasthanam Prabhavaha. That place where something is seen first. Abhuta Pradurbhavo Janihi Anyata Siddhasya Prathamam Upalambhaha Prabhavaha. Abhuta Pradurbhava, Abhuta, that which was not existing before, Pradurbhava, it arises, that is called Janma. Okay, that is Jani, as in case of Janikartuhu Prakritihi. Whereas in Prabhava, Anyata Siddhasya Prathamam Upalambhaha, it might be born elsewhere, it is seen for the first time here. Saha Prabhavaha, Atayeva Himavato Ganga Prabhavati. The Ganga flows from the Himalayas. Ganga does not actually, the Vivaksha here is not born, or it does not come into existence in the Himalayas. You should all know the story. She goes to Patala and then she comes. And so what he is saying is, Himalaya is not the Utpatti sthana of Ganga. That is not the Vivaksha. It is Prabhava. She is seen first. She becomes visible in the Himalayas. Whereas her Utpatti is another place. हिमवतः गंगा प्रभवति तत्र प्रकाशते नाम प्रथमं दृश्यते तत्र इत्यर्थः तावदेव. सो जनिकर्तुः प्रकृतिः भुवः प्रभवः. जननस्य प्रकृतेरपि पञ्चमी भवति, अपादानत्वं पञ्चमी भक्तिः भवति. प्रभवस्यापि पञ्चमी भवति, अपादानत्वं तत्त्वयुक्ता पञ्चमी भक्तिः. That is about the Apadana Samya Vidhayaka Sutra told by Panini. Dhruvapaye Apadanam, Sitrarthanam Bhayahetuhu, వారణార్థానాం ఇచ్చితః అంతర్భవేన దర్శనం ఇచ్చతి జనికర్త ప్రకృతి భవ ప్రభవ. సో పాణిని హస్ టోల్డ్ అ లాట్ ఆఫ్ సూత్రస్ ఫార్ అపాదాన సమ్య. బట్ ద భాష్యకార హీ ఒపైన్స్ దట్ నన్ ఆఫ్ దీస్ సూత్రస్ ఆర్ నీడెడ్ ఎక్సెప్ట్ ద ఫస్ట్ వన్ సేయింగ్ ధ్రువం అపాయ అపాదానం తేనైవ అలం అన్యాని సూత్రాన్ని నావశ్యకాని ఇది భాష్యకార ప్రత్యాఖ్యానం కరోతి. ద భాష్యకార హస్ overruled all other sutras, saying they are not required. Whatever we studied after Dhruva Upaya Apadana, he says they are not required. We can, everywhere, we can get Apadana Samya and Panchami Vibhakti by Dhruva Upaya Apadana. So, Dhruva Upaya Apadana iti sutram vihaya, sarvani Apadana Samya vidhaya sani sutrani, bhashya pratyakshatani. So, what is the logic? The bhashyakara uses is, buddhikritam apadanam. He says everywhere there is Vishlesha and there is that Avadhi. The Dhruvatva is there everywhere. Buddhi Kratam, in your Buddhi. What he says is, Varanathanam is Vitaha. You are saying you prevent something. Yavebhyaha Gam Varayati. Satra Kim Bhavati, in your mind you associate the cow with the Yavas and then from your mind you separate it. Okay, so initially in your mentally there is a separation between the gau and the yava. So there is vishlesha, vishlesha avadibhutam, you are taking away the gau from the yava. So dhruvapaya apadana mityanena yavanam apadanatvam siddhati. So you have apadana from dhruvapaya apadanam. If you take antardhavena darshanam ichyati, you are hiding yourself. Mentally you are, first you associate yourself with mata, say matam niliyate krishna. Krishna associates himself with his mata and then he takes himself away so that he might not see him. So buddhikratam apadanam. Upadhyayad adhite. The upadhyaya is associated with the vidya. You are taking it from him through your buddhi. So everywhere he says buddhikratam apadanatvam asti. So in all cases there is in your mind there is association and there is separation. यदा यदा संयोगः चतुरकः विश्लेषः भवति तत्र सर्वत्र ध्रुवम् यदस्ति तस्य अपादानसंज्ञा भवति. ध्रुवमपाये अपादानम् इत्यनेनैव अपादानसंज्ञा भवति. अन्यानि सूत्राणि नावश्यकानि. सो यूजिङ्ग् दिस् लाजिक् आफ् बुद्धिकृत अपादानत्व हि रिटर्न्स् ओन्ली ध्रुवमपाये अपादानम् एण्ड् हि सेस् आल् अदर् सूत्रास् आर् नाट् नेसेसरि. यदि नावश्यकं किमर्थमुक्तं पाणिनिना इत्युक्ते स्पष्टार्थं मन्दमत्यनुग्रहार्थं टु मेक् इट् क्लियर् टु ऐ मीन् इट् मैट् बि वेरि क्लियर् टु द भाष्यकार बिकास् आफ् हिस् मैण्ड् अस्मादृशानां मन्दमतीनाम् अनुग्रहार्थं पाणिनिना स्पष्टमुक्तम् एतेषु सर्वेषु अपादानत्वम् अस्ति इति तद् भवत्येव. इन् सूत्र आल्वेस् देर् इस् समथिङ्ग् देर् आर् टु थिङ्ग्स् देर् इस् वन् इस् दृष्टफल अण्ड् अदर् इस् अदृष्टफल. So just because Bhashyakara has said they are not necessary, they have not been removed from Ashtadhyayi Sutrapatha and they will not be done. Sutraparayane Veda Parayana Punyam Halam Bhavati Sarva Veda Parayana Punyam Labhate Iti Uchyate. That is always there. That is the Adrishta Phala. So directly when you come to Vyakarana and strictly look, is it strictly essential for substantiating whatever prayoga it was meant for? నావశ్యకం అన్యథాపి సాధయితుం శక్యతే ఇది భాష్యకారస్య అభిప్రాయః. ఇంత సూత్రమస్తి తత్ఫలమపి అస్యేవ. సో దట్ ఇస్ ఇట్ అబౌట్ భోప్రభాః ఇత్యస్య ఉదాహరణం హిమవతో గంగా ప్రభవతి. భువః భూః గంగా అస్తి కుతః హిమవత్ హిమవతి నామ హిమాలయ పర్వతే ప్రథమం తస్యా ప్రకాశః భవతి అతః హిమవతః గంగా ప్రభవతి. ఇది ఉదాహరణం. హిమవాన్ ఇస్ ద ప్రభవ ఆర్ ద ప్లేస్ వేర్ షీ సీన్ ఫస్ట్. భువ అండ్ ప్రభవ ఆర్ నాట్ టూ సెపరేట్ థింగ్స్. భువ వెన్ దర్ ఇస్ ఎక్సిస్టెన్స్ ఆఫ్ సంథింగ్ ప్రభవ ద సోర్స్ ఆఫ్ దట్ ఎక్సిస్టెన్స్ విల్ గెట్ అపాదాన. దే ఆర్ నాట్ టూ సెపరేట్ థింగ్స్. సో భూ కర్తు ప్రభవ భూ భవనం నామ దట్ విచ్ ఎగ్జిస్ట్ తస్య కర్త దట్ ఇస్ హిమ గంగా తస్యా ప్రభవ ప్రథమం ప్రకాశస్థానం हिमवत हिमवान तस्य अपादान संज्ञा भवति हिमवतः गंगात्र भवति प्रथमं प्रकाशते यत्र सः प्रभवः यः प्रकाशते सः भूः दट विच इज सीन इज भूः विच इज गंगा प्रभव इज हिमालय प्रभवस्य अपादान संज्ञा भवति that is about Karaka Panchami. Adre Upapada Panchami Bhavati. Upapada Panchami is also pretty big. There are many cases where Panchami Bhakti is directly told. Shvaha Pashyama. We will look at Upapada Panchami tomorrow 6:30. येनाक्षर समाम नायम अधिगम्य महेश्वरा कृत्रिम व्याकरणम प्रोक्तम तस्मै पाणिनये नमः मत्स्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीश्वरि भासेत् नैयाकरणसिद्धान्तकौमुदीयं विरच्यते